एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। वैतडी जनपदे वरयात्रिभिः आरूढम् बसयानम् इह सायम् दुर्घटितम् सद् अष्टौ जनाः मृताः वर्तन्ते। वैतडी जनपदस्य पुरचौडी नगरपालिकायाः सप्तमवडा क्षेत्रस्य बहूनि स्थानात् वरयात्रिणः आरोह्य प्रत्यावर्तनस्य क्रमे सप्तमवडा क्षेत्रस्यैव बडगाउँ कोणे इह सायम् आसन्न षड्वादने यानम् दुर्घटितम् सद् अष्टौ जनाः मृताः सन्तीति वैतडी जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। मृतकेषु बजाङ जनपदस्य बिथडचिर ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य चत्वारिंशद् वर्षीयः केशवराज जोशी, त्रयोदश वर्षीय अशोकराज जोशी, पञ्चत्रिंशद् वर्षीय वसन्त जोशी, एकचत्वारिंशद् वर्षीय विष्णुदत्त जोशी, द्वाचत्वारिंशद् वर्षीय नरेशराज जोशी च, केदारस्यूं ग्रामपालिकायाः षष्ठी वर्षीयः मोहनदेव भट्ट, जयपृथ्वी नगरपालिकायाः सप्तमवडा क्षेत्रस्य चत्वारिंशद् वर्षीयः वसन्तराज रताला, वैतडी जनपदस्य पुरचौडी नगरपालिकायाः सप्तमवडा क्षेत्रस्य चत्वारिंशद् वर्षीय पुष्पा अवस्थी च वर्तन्ते इति वैतडी जनपद प्रहरी कार्यालयस्य प्रमुख दीपक कुमार राय असूचयत। दुर्घटनायां पञ्चचत्वारिंशत् जनाः आहताः वर्तन्ते। आहतानां जनानां डडेलधुरा चिकित्सालये उपचारः जायमानोऽस्तीति प्रहरिणा संसूचितम् अस्ति। प्रधानमन्त्री सुशीला कार्के निगदति प्रतिनिधिसभा सदस्यानां निर्वाचनं निर्धारिते समये आगामिनः फाल्गुन मासस्य एकविंशे दिवसे एकस्मिन्नेव चरणे भविता। भक्तपुरस्य सानोठिमी वर्तिनी जनक शिक्षा सामग्री केन्द्रे मतपत्राणां विधीयमानस्य मुद्रण कार्यस्य निरीक्षणस्य अनन्तरं संचारकर्मी सह पूर्वेद्युः प्रधानमन्त्री कार्की द्वयोः चरणयोः निर्वाचनं भविष्यति। एकस्मिन्नेव दिने निर्वाचनं सम्पादयिष्यते इति भ्रमेण न स्थातुं निःशङ्केन एकस्मिन्नेव चरणे निर्वाचनं भविष्यतीति निःशङ्केन स्थातुम् अन्वरुणत। प्रधानमन्त्री कार्की निर्वाचनानन्तरं नवीनाय सर्वकाराय सत्तायाः हस्तान्तरणं विधाय गृहं प्रति प्रस्थास्यते इति च अवोचत। आगामिना फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य प्रत्यक्ष प्रणाल्याः षष्टेः निर्वाचनक्षेत्राणां कृते द्वासप्ततिर्लक्षाणि षष्टिसहस्राणि च मतपत्राणि मुद्रितानि सन्तीति निर्वाचन आयोगस्य सहायक प्रवक्ता कुलबहादुर जीशी असूचयति। प्रत्यक्ष प्रणाल्या कृते समग्रतः कोटिद्वयस्य त्रयाणां लक्षाणां त्रयोविंशतेः सहस्राणां च मतपत्राणां मुद्रणकार्यं सम्पादनीयमस्तीति असूचयत। उच्च हिमालयीय क्षेत्रेभ्यः दुर्गम क्षेत्रेभ्यश्च प्राथमिकतां प्रदाय मतपत्राणां मुद्रणकार्यं विद्यमानमस्ति। अस्यैव माघमासस्य पञ्चविंशात् दिवसात् मतपत्राणि जनपदेषु प्रेष्यन्ते इति च आयोगेन ज्ञापितं वर्तते। यातायात साधनानां सौविध्ययुतेषु जनपदेषु ट्रकयानैः कन्टेनर यानैश्च मतपत्राणि प्रापयिष्यन्ते। स्थलगत मार्गेण मतपत्राणां प्रेषणकार्यं सरलतया न भवति, तत्र वायुयानानां माध्यमेन मतपत्राणि प्रापयिष्यन्ते इति च निर्वाचनायोगस्य सहायक प्रवक्ता जीसी असूचयत। अर्थमन्त्री रामेश्वर खनालः निःशङ्केन निर्वाचनस्य पूर्वकार्येषु प्रवर्तितुं सम्बद्धान् सर्वान् पक्षान् अनुरुणद्धि। निर्वाचनस्य पूर्वकार्याणां विषये स्थलगतम् अनुगमनं विधातुं बागलुङ जनपदं प्राप्तः अर्थमन्त्री खनालः नागरिकैः शान्तिपूर्ण वातावरणे मतदानस्य व्यवस्थायै सर्वकारेण पूर्वकार्याणि विधीयमानानि सन्तीति असूचयत। अर्थमन्त्री खनालः निःशङ्केन निर्वाचनस्य पूर्वकार्येषु प्रवर्तितुं सर्वान् निर्देशन् नागरिकैः भयरहिते वातावरणे मताधिकारस्य प्रयोगः कर्तुं शक्यते इत्यत्र विश्वस्ताः भवितुं सर्वान् अन्वरुणात्। निर्वाचनायुक्तः डा जानकी कुमारी तुलाधर गदति फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणं प्रतिनिधिसभा सदस्यानां निर्वाचनं स्वच्छे स्वतन्त्रे निष्पक्षे विश्वसनीये भयरहिते च वातावरणे सम्पादयितुं निर्वाचनायोगेन प्रभावपूर्ण रूपेण कार्यम् अग्रेसारितमस्ति। तस्यकृते आयोगेन तालिकाबद्धरूपेण कार्यं विधीयमानम् अस्ति साम्प्रतं प्रतिशतं नवत्या अंकै कार्याणि सम्पन्नानि सन्तीति च प्रावोचत। नेपाली कांग्रेस दलस्य प्रवक्ता देवराज चालिसे देशे स्वस्य स्वस्थ राजनीतिक स्पर्धाया वातावरणम् नास्तीति उक्तवान् वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय प्रचार प्रसार समित्या ह्य ललितपुरे आयोजितं पत्रकार सम्मेलनं सम्बोधयन् प्रवक्ता चालिसे सम्प्रति निर्वाचनस्य प्रचार प्रसारयोक्रमे नवीनानां प्राचीनानां च दलानां नामानि गृहीत्वा द्वेषपूर्णम् आक्रोशपूर्णं च वातावरणं निर्मीयमाणम् अस्तीति अवोचत। प्रवक्ता चालिसे बालबालिका राजनीतिक प्रभावे आनीय स्वकीयेभ्य अभिभावकेभ्य निर्वाचन चिन्हस्य दलस्य च प्रचारं कर्तुं प्रेरणां प्रदाय विपरीतानि राजनीतिक दलानि नेतृञ्च प्रति घृणापूर्णां टिप्पणीं विधाय भीतेन अराजनीतिकेन गतिविधिना स्वस्थ राजनीतिक वातावरणस्य विघटनस्य सम्भावना अस्तीति अवोचत। प्रतिनिधिसभाया आगामिनः निर्वाचनस्य प्रचारस्य क्रमे भ्रामक विज्ञापनानां प्रकाशनं प्रसारणं च न कर्तुं कारयितुं च सर्वे प्रत्याशिनः विज्ञापन समित्या अनुरुद्धाः वर्तन्ते। समित्या ह्यो विज्ञप्तिं प्रकाश्य सामाजिक सञ्जालादिषु कस्यापि दलस्य दलानां प्रत्याशिनां नेतुः कार्यकर्तॄणां च प्रत्यक्षरूपेण अप्रत्यक्षरूपेण च अपमानस्य भ्रमसर्जनस्य च कार्याणि जायमानानि सन्तीति समितौ वेदनायाः प्राप्तेः कारणेन तथाविधं कार्यं न कर्तुं कारयितुं च समित्या सर्वे एवं अनुरुद्धाः वर्तन्ते। समित्या तथाविध गतिविधिषु संलग्नतायां प्राप्तायां सत्यां विधेरनुसारेण दण्डयिष्यन्ते चेति प्रत्यादिष्टं च वर्तते। राष्ट्रिय मानवाधिकारायोगेन निर्वाचनाचार संहितायाः पूर्णतः पालनं कृत्वा निर्वाचनं मानवाधिकार मैत्री सम्पादयितुं सम्बद्ध सर्वे पक्षाः अनुरुद्धाः वर्तन्ते। आयोगेन निर्वाचने पर्यवेक्षणाय इच्छुक संस्थानां प्रमुखैः प्रतिनिधिभिश्च सह ह्यो वीते विमर्शने निर्वाचनं मानवाधिकार मैत्री सम्पादयितुं सर्वे अनुरुद्धाः सन्ति। आयोगे मानवाधिकारानुगमनात् निर्वाचन आयोगेन निर्मितायाः क्रियान्वितायाश्च निर्वाचनाचार संहितायाः कतिपयै दलैः प्रत्याशिभिश्च उल्लङ्घनं विहितमस्तीति प्रश्न उत्थितोऽस्ति। निर्वाचनस्य पूर्वमेव अनेन प्रत्याशिना निर्वाचने विजय लप्स्यते इत्युक्त्वा समाचारं निर्माय भ्रम प्रसारितः मतदातृ शिक्षाया कार्यक्रमः प्रभावकारी न सम्भूत इति च विविधेषु विषयेषु कार्यक्रमे विमर्शनं सम्भूतम् आसीत्। इति समाचाराः।